श्री सिद्धिविनायकाच्या मंदिरात होणारी मंत्र पुष्पांजली।
हरि ओम गणानान्वा गणपतिं हवामहे कविं कवीनामुपम श्रवस्तमाम् ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत आन शृण्वन्नोतिभिस्सीदसदनम् ॐ नमो माद्भ्यो नमो अर्भकेभ्यो नमो युवभ्यो नम आशिनेभ्यः यजामदेवान्यदेशक्नवा ममाज्याय सस्यं समावृक्षि देवाः ॐ ममत्तो नः परिज्मावसरः ममत्ववातो अपां षण्वान् शिशेतमिन्द्रापर्वताय वन्नस्तन्नो विश्वे वरिवस्यन्तु देवाः ॐ कथाते अग्ने शुचयन्त आयो ददाशुर्वाजे विराशुषाणाः उभे यत्तोकेतनो ये दधानारतस्य सामान् द्रणयन्त देवाः ॐ यज्ञेन यज्ञमयजन्त देवा स्थानि धर्माणि प्रथमान्यासन् देहनाकाम् महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॐ राजाधिराजाय प्रसन्न साहिने नमो वयं वै श्रवणाय कुर्महे समे कामान् कामकामाय मह्यम् कामेश्वरो वै श्रवणो दधातु कुबेराय वै श्रवणाय महाराजाय नमः ॐ स्वस्ति साम्राज्यं भोज्यं स्वाराज्यं वैराज्यं पारमेष्ट्यं राज्यं महाराज्यमाधिपत्यमयं समन्तपर्या
विश्वतश्चक्षुरत विश्वतो मुख विश्वतो बाहुरत विश्वतस्पात् सम्भाव्यां दमते सम्पतत्रये द्यावा वक्रतुण्डाय धीमहे तन्नो दन्ते प्रचोदयात् श्रीसिद्धिविनायकाय साङ्गाय सह परिवार देवताभ्य पुष्पाञ्जलिं समर्पयामि
यानि कानि च पापानि जन्मान्तरकृतानि च तानि तानि विनश्यन्ते प्रदक्षिण पदे पदे श्रीसिद्धिविनायकाय सङ्गाय सहपरिवार देवताभ्यो नमः
प्रदक्षिणान्
समर्पयामि नमोऽस्वनन्दाय सहस्रमूर्तये सहस्रपादाक्षिशिरोरपाहये सहस्रनाम्ने पुरुषाय शाश्वते सहस्रकोटियुगधारिणे नमः श्रीसिद्धिविनायकाय सङ्गाय सहपरिवार देवताभ्यो नमः नमस्कारान् समर्पयामि आवाहनम् न जानामि न जानामि तवार्चनाम् पूजाञ्चैव न जानामि क्षम्यताम् परमेश्वर क्षम्यताम् परमेश्वर क्षम्यताम् परमेश्वर मन्त्रहीनम् क्रियाहीनम् भक्तिहीनम् सुरेश्वर यत्पूजितम् मया देव परिपूर्णम् तदस्तु मे अपराधसहस्राणि क्रियन्ते अर्निशम् मया दासोऽयमिति माम् मत्वा क्षमस्व परमेश्वर क्षमस्व परमेश्वर क्षमस्व परमेश्वर अन्यथा शरणम् नास्ति त्वमेव शरणम् मम तस्मात् कारुण्यभावेन रक्ष रक्ष परमेश्वर रक्ष रक्ष परमेश्वर रक्ष रक्ष परमेश्वर गतम् पापम् गतम् दुःखम् गतम् दारिद्र्यमेव च आगता सुखसम्पत्तेः पुण्याश्च तव दर्शनात् रूपम् देहि जयम् देहि यशो देहि द्विषो जहि पुत्रान् देहि धनम् देहि सर्वान् कामांश्च देहि मे श्रीसिद्धिविनायकाय सङ्गाय सहपरिवार देवताभ्यो नमः प्रार्थनाम्
समर्पयामि
यस्य स्मृत्या च नामोक्त्या तपः पूजाम् क्रियादिषु न्यूनम् सम्पूर्णता याते सद्यो वन्दे तमच्युतम् सद्यो वन्दे तमच्युतम् सद्यो वन्दे तमच्युतम् अनेन यथा ज्ञानेन यत्कृतपूजनेन तेन श्रीसिद्धिविनायकाय सङ्गाय सहपरिवार देवता प्रीयन्ता मम ओ तत्सत् श्रीर्गजाननार्पितमस्तु मङ्गलमूर्ति मूरया विघ्नेश्वराय वरदाय सुरप्रियाय लम्बोदराय सकलाय जगद्धिताय नागाननाय श्रुतयज्ञविभूषिताय गौरीसुताय गणनाथ नमो नमस्ते भक्तार्थिनाशनपराय गणेश्वराय सर्वेश्वराय शुभदाय सुरेश्वराय विद्याधराय विकटाय च वामनाय भक्तप्रसन्नवरदाय नमो नमस्ते नमस्ते ब्रह्मरूपाय विष्णुरूपाय ते नमः नमस्ते रुद्ररूपाय कलिरूपाय ते नमः विश्वरूपाय स्वरूपाय नमस्ते ब्रह्मचारिणे भक्तप्रसन्नवरदाय नमस्तुभ्यम् विनायकम् त्वाम् विघ्नशत्रुदलनेति च सुन्दरेति भक्तिप्रदेति सुखदेति फलप्रदेति विद्याप्रदेत्यगहरेति ते स्तुवन्ति तेभ्यो गणेशवरदो भव नित्यमेव लम्बोदरम् नमस्तुभ्यम् सततम् मोदक प्रिय निर्विघ्नम् कुरु मे देव सर्वकार्येषु सर्वदा मङ्गलमूर्ति मोरया 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 मीबाळताने तुझे च सेवा करुकाय दाने अन्याय माझे कोट्यान कोटी मोरेश्वराबा तुघाल कोटी
मंगलमूर्ती।